श्रोत्रि जनाः संस्कृत साप्ताहिके इति कार्यक्रमे वन्दे तावदहम् निधिः तिवारी कार्यक्रमस्योद्घोषिका। अयि किं भवन्तः न जानन्ति यथा नाना विधान परिपूर्णाः वर्णाः होलिकोत्सवे अस्मभ्यं रोचते तथैव साप्ताहिकीति कार्यक्रमेऽपि नाना विध विभागाः अस्य अलङ्काराः विद्यन्ते शोभावर्धमानाः च सन्ति। अयि सज्जनाः किं न खलु मयि विज्ञापन व्यग्रे शब्दैव श्रूयते। अस्तु विज्ञापयामि। एतस्य कार्यक्रमस्य प्रथमे प्रभागे सुभाषितानुभागाख्ये अस्माकं सहयोगी जतिन शर्मा प्रतिपादयति आलस्ययुतानां मनुष्याणां प्रवृत्तिम्। अस्तु श्रूयन्ताम् तावत्।
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति। अर्थात मनुष्य का सबसे बड़ा शत्रु आलस्य है। मनुष्य का सबसे बड़ा मित्र परिश्रम होता है, क्योंकि परिश्रम करने वाला कभी भी दुखी नहीं रहता।
भवतु विज्ञातम्। धन्यवादाः जतिन शर्मणे। अस्तु श्रोतारः अधुना अग्रेयामः। तत्र प्रसंगानुभागे संगीत संवृत्तम् एकं गीतं गायति अस्माकं सहयोगी नरेन्द्र दत्त सेमवालः।
ध्येयं वदन्ति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै।
अहो वाचे मधुराय धन्यता वचांसि प्रकटयामि। अयि सुरभारती समुपासकाः श्रेष्ठजनाः गतसप्ताहे आसंसारे किं किं घटितम्, काः काः उपलब्धयः समर्जिताः, योजनाश्च आगताः, एतानि सर्वाणि अङ्गानि संकलय्य अत्र आकाशवाण्यै अनेके वृत्तयः घटनाश्च प्रवदति अस्माकं सहयोगिनी मुदिता वेतालः।
प्रधानमन्त्रिणा नरेन्द्र मोदिना लोकसभा निर्वाचनाय राष्ट्रिय जनतांत्रिक संयुतेः प्रत्याशिनां समर्थने केरल राज्ये पालक्कड क्षेत्रे निर्वाचन अभियानस्य शुभारम्भो विहितः। अनवरतं विहिते प्रदूषण आकलन स्तरे चतुर्थ वर्षे अपि विश्वस्य सर्वाधिक प्रदूषित राजधानी नई दिल्ली एव वर्तते इति प्रतिपादितं विवरणे एकस्मिन्। केन्द्रीय वित्त मन्त्रिणा निर्मला सीतारमण इत्यनया नवदिल्ल्यां एशिया क्षेत्रीय विकास बैंकस्य उपाध्यक्षेण भार्गव दास गुप्ता वर्येण समं संवादो विहितः। अस्मिन् अवसरे विकास बैंक द्वारा विकसित भारतस्य लक्ष्यम् अग्रेसारयितुं विचार विमर्शो जातः। केन्द्रीय मन्त्रिणा पीयूष गोयलेन एनटीपी इति राष्ट्रिय समयावधि फलकं समुद्घाटितम्। मुम्बय्यां प्रारब्धमानं इदं फलकं नगरीय सुरक्षां सुनिश्चेष्यति।
शुष्टोक्तं भवत्या। ज्ञान पिपासवः मित्राणि समागतः सम्प्रति ज्ञान विज्ञान प्रभागः। एतस्मिन् विभागे विभिन्नानां विदुषाम् अनुभवान् ज्ञानानि शृण्वन्ति भवन्तः सर्वे। तावत् सौभाग्यात् आकाशवाण्यां स्वीय साक्षात्काराय भवताम् आत्मानम् अनुग्रहीतुं विराजन्ते अत्र केन्द्रीय संस्कृत विश्वविद्यालयस्य भोपाल परिसरस्य दर्शन विभागस्य सहायकाचार्याः डॉक्टर जी नरसिंहुलु महाभागाः। एतैः विद्वद्भिः सह संवादं समाचरति सहयोगिनी निधिः झाः।
अयि संस्कृतानुरागिणो ज्ञानार्जन ज्ञान प्रसार कर्म तत्परा ज्ञान वयोवृद्धाः सुधियः श्रोतारः सम्प्रति ज्ञान विज्ञान प्रभागे अस्माभिः सह संवादाय समुपस्थिताः सन्ति केन्द्रीय संस्कृत विश्वविद्यालय दर्शन विभागस्य सहायकाचार्याः डॉक्टर नरसिंहुलु महाभागाः। महोदयाः भवताम् आकाशवाणी पक्षतः हार्दं स्वागतं व्याचष्टे।
प्रणामः।
मान्यवर्याः, साक्षात्कार प्रभागस्य प्रथमे अंशे प्रश्नः वर्तते यत् दर्शनं नाम किम्, दर्शनस्य मानवजीवने किं योगदानम्।
एवम् उत्तमः प्रश्नः भवत्याः, यतोहि आधुनिकसमाजेऽपि दर्शनस्य का उपयोगिता इति समाजे चर्चा भवति. आदौ दर्शनं नाम किम् इति अस्माभिः विज्ञेयम्. दर्शनं नाम दृश्यते ज्ञायते येन यथार्थतत्त्वं तदेव दर्शनं इति अभिधीयते. नाम लोके बहूनि तत्त्वानि सन्ति, तेषु विद्यमानेषु तत्त्वेषु यथार्थतत्त्वं नाम किमपि वस्तु लोके वर्तते चेत् तस्य वास्तविकस्वरूपं किमिति ज्ञातुं यः प्रयासः भवति अथवा येन तद् ज्ञातुं वयं शक्नुमः तदेव दर्शनं इति उच्यते. इदानीं दर्शनस्य आविर्भावः कुतः जातः इति जिज्ञासायां विवेकवतः मनुष्यस्य मस्तिष्के नैके प्रश्नाः अनादिकालादारभ्य समुद्भूताः. ते च प्रश्नाः भवन्ति कोऽहम्, कथमिदं जातम्, को वा अस्य कर्ता, अहं कः, इदं जगत् मत्पुरतः विद्यमानं जगत् कथम् उत्पन्नम्, अस्य कर्ता कः इति एतादृश्यः जिज्ञासाः अनादिकालादारभ्य अस्माकं पूर्वजानां ऋषिवराणां मस्तिष्कात् निर्गताः. तेषां प्रश्नानाम् अथवा तासां जिज्ञासानां समाधानरूपेण तपोनिधिभिः अस्माकं ऋषिभिः तत्र महच्चिन्तनं कृतं वर्तते. तदाधारीकृत्येव दर्शनशास्त्रस्य विकासः जातः. न केवलं भारते अपि तु पाश्चात्यदर्शनेष्वपि इयमेव परम्परा दृश्यते. वस्तुतः जन्तूनां नरजन्म दुर्लभम् इति उक्तत्वात् मनुष्यः एव तादृशः प्राणी भवति नाम येन सः स्वकीयजिज्ञासाम् उपशमयितुम् अर्हति नाम स्वकीयज्ञानेन प्रयासेन. एवं प्रकारेण तत्र दर्शनशास्त्रस्य विकासः जातः. तर्हि इदानीं मुख्यतया तत्त्वत्रयं नाम एकः जीवः, द्वितीयः जगत् इति, द्वितीयं तत्त्वं जगत् इति, तृतीयं तत्त्वम् ईश्वरः इति. विज्ञाने वैज्ञानिकयुगे ईश्वरं वयं यद्यपि नाङ्गीकुर्मः, परन्तु भारतीयज्ञानपरम्परायाम् ईश्वरः कश्चिद् वर्तते येन इदं जगत् सृष्टं दृश्यते इति अस्माकं वेदादिषु यदुक्तं वर्तते तदाधारीकृत्य श्रुतिवचनानि स्वीकृत्येव इयं परम्परा अनुवर्तते. अतः जीवस्य किं स्वरूपम्, जगत् पुरतः महद्वर्तते, तत्र विद्यमानानि वस्तूनि बहूनि सन्ति, तेषां किं स्वरूपम्, अपि च अस्य कर्ता कश्चित् वर्तते चेत् कदा आरभ्य एषा सृष्टिः जाता, सृष्टौ विद्यमानेषु पदार्थेषु किं सत्यमस्ति, एतादृश नाम पदार्थत्रयस्य नाम जीवः, जगत्, ईश्वरः, एतत् पदार्थत्रयस्य सम्बन्धज्ञानं, पदार्थत्रयस्य तत्त्वज्ञानं यद्भवति तत् केवलं दर्शनशास्त्रेणैव भवति इति दर्शनशास्त्र नाम दर्शनशास्त्रस्य विषये ईशत्.
बहु समीचीनं महाभागाः. अधुना मनसि जिज्ञासा आयाति यत् आधुनिक भौतिक विज्ञानेन सह वैदिक दर्शनमपि मानवेन स्वजीवने कथं परिपालनीयम्, अद्यत्वे दर्शनानां दार्शनिकानां स्थितिः कीदृशी वर्तते इत्यपि मनसि जिज्ञासा आयाति.
लोके दर्शनानां योगदानं सर्वस्मिन्नपि काले, त्रिष्वपि कालेषु दर्शनानां योगदानं भवत्येव. किमर्थमिति चेत् सर्वदापि अस्माकं मनसि अयं प्रश्नः उदीयात् कः इति चेत् आधुनिकता अथवा भौतिकता आध्यात्मिकता अनयोर्मध्ये सर्वदापि द्वन्द्वः दृश्यते. भौतिकता नाम दृष्टिगोचरतया यद्यद् दृश्यते तदेव वैज्ञानिकदृष्ट्या वयं स्वीकुर्मः, परन्तु कानिचन तत्त्वानि सन्ति तानि अस्माकं दृष्टिगोचराणि न भवन्ति. तानि कथम् अस्माभिः विज्ञेयानि इति चेत् दर्शनशास्त्रद्वारा एव. तर्हि आधुनिकसमाजेऽपि दर्शनशास्त्रस्य का उपादेयता इति जिज्ञासायाम् अवश्यमेव इदं वक्तव्यं भवति. यतोहि मनुष्यः वा भवतु, सर्वेऽपि प्राणिनः किमिच्छन्ति, सुखं मे भूयात्, दुःखं मनादपि मा भूत् इति. अत एव अन्ततो गत्वा मनुष्यस्य परमं लक्ष्यं भवति शाश्वतसुखप्राप्तिः. तदेव अस्माकं चतुर्विध पुरुषार्थेषु धर्मार्थकाममोक्षाख्येषु मोक्षरूपेण उपदिष्टः वर्तते. मोक्षरूपेण उपदिष्टं वर्तते तत् चतुर्थः पुरुषार्थः वर्तते. तर्हि सः पुरुषार्थः नाम कः इत्युक्ते शाश्वतसुखप्राप्तिरेव. कोऽपि पिपीलिकादारभ्य ब्रह्मपर्यन्तमपि किमिच्छति प्राणिः इति चेत् सर्वदा अहं सुखी स्याम्. तर्हि मनुष्याः अपि प्रातःकालादारभ्य उत्थाय रात्रिपर्यन्तमपि सुखमहं कथं प्राप्स्यामि इत्येव सर्वत्रापि तस्य प्रयासः. तर्हि भौतिकविज्ञानेन यत् सुखं प्राप्यते तदवश्यमेव अङ्गीकर्तव्यं. तत् सुखं नाम अनादिकालादारभ्य भौतिक विकासः यावान् प्रपञ्चे जातः स च विकासोऽपि अस्माभिः स्वीकर्तव्यः परन्तु न केवलं तेनैव वयं सुखिनः भवामः इति चेत् तद् अङ्गीकर्तुं न शक्यते यतोहि अस्माकम् अनुभव एव तत्र प्रमाणम् किमर्थमिति चेत् शाश्वत सुखप्राप्ति अस्माकं ऋषिभिः यदुक्तमस्ति पूर्वकाले तदेव अस्ति आन्तरिकं ज्ञानम् अधिकम् आसीत् इदानीम् अस्माकं यत् नाम या शक्तिः वर्तते सा शक्तिः बाह्यविषयेषु भौतिक विकासे एव वयं स्थापयामः परन्तु पूर्वकाले तत्र मन्त्रशक्तिः तत्त्वज्ञानम् इत्यादि द्वारा तत् नाम अस्माकं जीवस्य अन्तेऽपि कानि तत्त्वानि सन्ति कथं जीवः विना भौतिक सुखादिभिः अपि सः सुखं प्राप्नुयात् अथवा कश्चित् निर्धनिकः भवति सोऽपि कथं सुखी स्यात् इत्यादि चिन्तनं दर्शनशास्त्रे कृतं वर्तते अतः आध्यात्मिकदृष्ट्या शाश्वत सुखप्राप्त्यर्थं मोक्षप्राप्त्यर्थम् अद्यत्वेऽपि दर्शनशास्त्राणाम् उपादेयता वर्तते एव यतोहि भौतिक साधनैरेव वयं सर्वविधं सुखं साधयितुं न शक्नुमः इति सर्वेषामपि अस्माकं अनुभव एव तत्र प्रमाणम् अतः दर्शनशास्त्राणां पूर्वमपि उपादेयता आसीत् सम्प्रत्यपि अस्ति आधुनिककाले विज्ञानं यद् वृद्धिं यास्यतु नाम तथापि तत्र आन्तरिक तत्त्वज्ञानाय दर्शनशास्त्राणाम् उपयोगः भवत्येव
मान्यवर्याः संवादस्यास्य अन्तिमे चरणे प्रश्नः आयाति यत् सर्वेषां स्वस्वचिन्तन विशिष्टत्वे अपि भवद्रीत्या श्रेष्ठतमं दर्शनं किं भवति
एवं तत्रापि अस्माकं भारतीयदर्शनेषु विशिष्य आस्तिकदर्शनानि नास्तिकदर्शनानि इति द्विधा विभक्तानि दर्शनानि दृश्यन्ते तत्र आस्तिकदर्शनानि वेदप्रमाणमूलकतया नाम विकसितानि उद्भूतानि सन्ति परन्तु नास्तिकदर्शनानि वेदप्रामाण्यम् अनङ्गीकृत्य तत्र प्रवृत्तानि दृश्यन्ते तर्हि एतेषु सर्वेष्वपि दर्शनेषु आस्तिकदर्शनानि षट् नास्तिकदर्शनत्रयमपि तत्र एतेषु सर्वेष्वपि दर्शनेषु किं दर्शनं महत्तमं भवति इति प्रश्नः यदा कदाचित् उदेति तर्हि तत्र लक्ष्यं तु सर्वेषां दर्शनानाम् इदमेव लक्ष्यं वर्तते शाश्वत सुखप्राप्तिः मोक्षप्राप्तिः कथं मनुष्यः रागद्वेषादीन् विहाय सुखी स्यात् इत्येव लक्ष्यं सर्वेषामपि दर्शनानां तत्रापि यद्यपि तत्त्वानां संख्यादृष्ट्या वा प्रतिपादनशैल्या वा इमानि दर्शनानि भिद्यन्ते तथापि एतेषां दर्शनानां लक्ष्यम् एकमेव इति कृत्वा किं दर्शनं विशिष्टम् इति कथने कदाचित् क्लेशः स्यात् तथापि तत्र विशिष्य बहुलप्रचारे वेदान्तदर्शनं वेदान्तदर्शनेऽपि अनेकानि मतानि भवन्ति यथा भगवत्पादाः श्रीशङ्कराचार्याः केरले जन्म प्राप्य सम्पूर्ण भारते स्वकीय ज्ञान प्रभावेन अटनं कृत्वा सर्वत्रापि तत्र विशिष्य अद्वैतवेदान्तदर्शने अत एव उक्तम् ईश्वरानुग्रहादेव पुंसाम् अद्वैतवासना इति यतोहि अन्यानि दर्शनान्यपि उत्कृष्टानि सन्ति तथापि वेदान्तदर्शने तत्रापि अद्वैतवेदान्तदर्शनं यद्वदति अस्माकम् अनुभवे यद् नास्ति जीवः ईश्वरः एक एव तत्त्वमसि अहं ब्रह्मास्मि प्रज्ञानं ब्रह्म अयमात्मा ब्रह्म इत्यादीनि महावाक्यानि उपनिषत्सु यानि उद्घोषितानि सन्ति तानि आदृत्य जीवब्रह्मणोः एकत्वं प्रतिपादितम् अद्वैतवेदान्तदर्शने इति कृत्वा कश्चन विशेषः वर्तते अद्वैतवेदान्तदर्शनस्य एवमपि तत्र भगवद्गीतायामपि विशिष्य ज्ञानविज्ञानविषये भगवतापि श्रीकृष्णेन बहुधा प्रतिपादितम् नाम इदं तु ते गुह्यतमं नवमाध्याये भगवान् श्रीकृष्णः प्रतिपादयति अर्जुनमुद्दिश्य इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितं यज्ञात्वा मोक्षसे अशुभात् इति विज्ञानमपि तत्र योजितं नाम दर्शनेषु विज्ञानं नाम विशेषज्ञानं सामान्यज्ञानं सर्वेषामपि भवति तदेव तत्त्वज्ञानमेव विशेषज्ञानम् इत्युच्यते तत्त्वज्ञानं नाम कश्चन पदार्थः भवति चेत् तस्य स्वरूपं किमिति न्यायशास्त्रे उच्यते अस्य शास्त्रस्य त्रिविधा दृष्टिः अथवा शास्त्रस्य त्रिविधा गतिः उद्देशो लक्षणं परीक्षा चेति यदि पदार्थः कश्चन उच्यते चेत् तस्य नाम किं तदेव उद्देश्यं भवति पुनः तर्हि उद्देश्यम् उक्तं चेत् तस्य किं लक्षणं लक्षणमपि वक्तव्यम् असाधारणधर्मवचनं लक्षणमिति कृत्वा पुनः तत्रापि लक्षणं तस्मिन् पदार्थे यं पदार्थमुद्देश्य लक्षणम् उक्तमस्ति तस्मिन् पदार्थे तद् लक्षणं घटते वा न वा इति परीक्षापि क्रियते तदानीमेव तत्त्वज्ञानं भवति इति न्यायशास्त्रेपि उक्तम्। एवं क्रमेण यद्यपि सर्वेषु दर्शनेषु तत्तत् रीत्या पदार्थनिरूपणं कृतं तत्त्वनिरूपणं कृतं वर्तते, तथापि मद्बुद्धिः वदति वेदान्तदर्शनम् एतेषु दर्शनेषु अतिशयते इति। धन्यवादः।
धन्यवादाः महोदयाः। भवद्भिः दर्शन विषयमवलम्ब्य प्रतिपादितैः वचोभिः वयम् अनुरञ्जिताः धन्याः। एतस्मै संवादाय भवद्भिः स्वीयः अमूल्यः समयः कल्पितः, तदर्थम् आकाशवाणीपक्षतः पौनः पुन्येन भवद्भ्यः हार्दाः धन्यवादाः, सादरं प्रणामाः।
एवं धन्यवादः।
महाभागाः भवतां बहुमानवचनेनानुगृहीताः स्मः। श्रोतारः संस्कृत दिग्दर्शन नामाभिधेयके प्रभागे श्रोष्यन्ति भवन्तः संस्कृत विश्वविद्यालयेषु महाविद्यालयेषु संस्थानेषु इत्यादिषु क्षेत्रेषु समायोजिताः कार्यक्रमाः, संगोष्ठ्यः, वार्ताः, कार्यशालाश्च अथ च प्रचल्यमाणाः कार्यक्रमाः अपि एतस्मिन् प्रभागे सविस्तारं प्रस्तूयते पुरुषोत्तम शर्मणा। अस्तु तावत् शृणुमः।
नवदिल्लीस्थेन केन्द्रीय संस्कृत विश्वविद्यालयेन उत्तर प्रदेशस्य अयोध्यायां चतुर्दिवसीया अखिल भारतीय शास्त्रीय स्पर्धा समायोजिता। गुरुवासरे अयं कार्यक्रमः पूर्तिं गतः। श्री लाल बहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयस्य वेद वेदांग पीठान्तर्गतेन वेद विभागेन भौमवासरे महामहोपाध्याय आचार्य वाचस्पति उपाध्याय स्मारक व्याख्यानमालायाः अन्तर्गतम् एकदिवसीया विद्वद्गोष्ठी समायोजिता, यत्र निरुक्ते षड्भाव विकार निरूपणम् इति विषये चर्चा सञ्जाता। केन्द्रीय संस्कृत विश्वविद्यालयस्य राजीव गांधी परिसरे मीमांसा विद्याशाखा पक्ष वितरता राष्ट्रिय कार्यशाला संचाल्यते।
साधुवादाः भवति। अस्तु प्रिय मित्राणि, कार्यक्रमस्य प्रत्यग्रे प्रभागे बालानां सुखबोधाय आत्मानुरञ्जनाय च बालवल्लरी प्रभागः समागतो विद्यते। एनं प्रभागं सम्यक्तया निष्पादयति मम सहयोगिनी निधिः झा।
प्रियाः बालाः, अद्य वयम् एकतः दशपर्यन्तम् गीतमाध्यमेन संख्यापठनम् कुर्मः। एकम् द्वे वदन्तु सर्वे, त्रीणि चत्वारि आनय वारि, पञ्च षट् कराभ्याम् फट्, सप्त अष्ट संस्कृतनिष्ठ, नव दश भाषाप्रवेशः।
अयि सुहृत् श्रोतारः, भारतदेशः एतादृशः देशो विद्यते यत्र अनेके भाषाभाषिणः, धर्मावलम्बिनः, गुरवः, सम्प्रदायाश्च पारस्परिक कल्याणाय समुद्युताः सन्ति, अपि च भाषाबाध्यताम् तेन अधिगच्छन्ति। भाषाम् भावस्य विनिमयित्वेन भारतीयजनाः अङ्गीकुर्वन्तः स्वीय पारस्परिक प्रेम्णः दर्शयन्ति। तादृशः प्रेमभावः सुष्ठुरीत्या कथ्यते अस्माकं सहयोगिनया सुषमा शर्मणा।
प्रथमं वाक्यमस्ति, महाकवि कालिदासः न केवलं भारतस्य प्रत्युत विश्वस्य श्रेष्ठ कविः अस्ति। पहला वाक्य है, महाकवि कालिदास न केवल भारत के अपितु विश्व के श्रेष्ठ कवि हैं। मगही में महाकवि कालिदास न केवल भारत के अपितु विश्व के श्रेष्ठ कवि हल्थिन। द्वितीयं वाक्यमस्ति, महाकवि कालिदासस्य प्रतिभा सर्वतोमुखी अस्ति। दूसरा वाक्य है, महाकवि कालिदास की प्रतिभा सर्वतोमुखी है। मगही में महाकवि कालिदास की प्रतिभा सर्वतोमुखी हले। तृतीयं वाक्यमस्ति, संस्कृत साहित्ये अयं महाकविः अद्वितीय स्थानं धारयति। तीसरा वाक्य है, संस्कृत साहित्य में महाकवि कालिदास का अद्वितीय स्थान है। मगही में संस्कृत साहित्य में महाकवि कालिदास के अद्वितीय स्थान है। धन्यवादः।
अस्तु मित्राणि, साम्प्रतं गमनवेला तु आगता, तथापि आगामी सप्ताहे नूतनं अंकं अवलम्ब्य कार्यक्रमावसान पर्यन्तं भवद्भिः सह पुनर्मेलनं करिष्यामः। भवन्तः सर्वे एतदनन्तरं स्वीय जिज्ञासां प्रतिपुष्टि प्रक्रियां अस्मभ्यं प्रेषयितुं शक्नुवन्ति। अस्माकं ईमेल संकेतो वर्तते nsdsanskrit@gmail.com इति। अथ च भवद्भ्यः सर्वेभ्यः होलिकापर्वणः हार्दाः शुभाशयाः, अभिनन्दनानि च। इत्युक्त्वा विरमामि, नमामि च। जयतु संस्कृतम्। जयतु भारतम्।